पादाश्रितानां च समस्तचोरं हृदयस्य चौरम् नीलाम्बुजश्यामलकान्ति चौरम् चौराग्रगण्यं पुरुषं नमः।